इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः अल्जीरिया मोरिटानिया मलावी इत्येतेषां देशानां यात्रायाः अनन्तरं नवदिल्लीं प्रति प्रस्थिता। उपराष्ट्रपतिना श्रीजगदीप धनखडेन शिक्षायाः व्यवसायीकरणत्वात् शिक्षा प्रभाविता भवन्ती अस्तीति प्रतिपादितम्। केन्द्रीय वित्तमन्त्रिणा निर्मला सीतारामन् इत्यनया प्रोक्तं यत् मैक्सिको भारतयोः संयुक्त प्रयासैः अत्युन्नत वैद्युतिक उपकरणादिषु विविधीकरणद्वारा सुकरा स्थितिः इतोऽपि सुदृढा भवितुमर्हतीति। चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य शरसन्धान विश्वचषक स्पर्धायाः निर्णायक प्रतियोगिता अद्य मैक्सिको देशे आरभ्यते। अपि च भारतीय ऋतुविज्ञान विभागेन अग्रिमयोः दिनद्वयतः दिनत्रयं यावत् तमिलनाडु पुदुच्चेरी कर्णाटक सहित राष्ट्रस्य दक्षिण भागेषु धारासार वर्षायाः संभावना प्रकटितास्ति। अथ वार्ताः विस्तरेण। राष्ट्रपतिः द्रौपदी मुर्मुः अल्जीरिया मोरिटानिया मलावी इत्येतेषां देशानां यात्रायाः अनन्तरं नवदिल्लीं प्रति प्रस्थिता। अस्मद्वार्ताहरेण प्रोक्तं यत् राष्ट्रपतिपदासीनायाः द्रौपदी मुर्मुवर्यायाः सोत्साहं पारम्परिकरीत्या च निर्गमन समारोहः समायोजितः। मलावी देशस्य उपराष्ट्रपतिना माइकल बिज्विक इत्यनेन अन्यैश्च अधिकारिभिः तस्यै यात्रावसानोत्सर्गः दत्तः। राष्ट्रपतिना अनया यात्रया अफ्रीकी देशैः सह भारतस्य सम्बन्धेषु एकः नवीनोऽध्यायः योजितोऽस्ति। उपराष्ट्रपतिना श्रीजगदीप धनखडेन शिक्षायाः व्यवसायीकरणत्वात् शिक्षा प्रभाविता भवन्ती अस्तीति प्रतिपादितम्। श्रीधनखडः अद्य मध्याह्ने सीकर जनपदस्य एकस्मिन् अशासकीय शिक्षणसंस्थाने भाषमाणः अवोचत् यत् शिक्षायाः व्यवसायीकरणं राष्ट्रस्य भविष्याय कदापि स्वस्तिकरं नास्तीति। तेनोक्तं यत् शिक्षा कदापि आयस्य साधनं नासीत्, अपितु त्यागस्य दानस्य स्वस्थसमाजस्य निर्माणहेतुश्च आसीत्। श्रीधनखडेन प्रोक्तं यत् सम्प्रति शिक्षा तादृशं वस्तुभूतमस्ति यस्य विक्रयणं लाभाय क्रियते, येन हि शिक्षायाः गुणवत्तायां प्रतिकूलप्रभावाः जायमानाः सन्ति। उपराष्ट्रपतिना प्रोक्तं यत् अनुसन्धान नवाचाराणां सर्वातिबृहत्तमाः लाभार्थिनः उद्योगाः वर्तन्ते, ये हि राष्ट्राय विश्वपटले शक्तिं यच्छन्ति। श्रीधनखडः उक्तवान् यत् वैदेशिक आक्रमणकारिणः प्राचीनभारतस्य ज्ञानकेन्द्राणि नष्टीकृतवन्तः, ब्रिटिश शासनकाले च भारतीय शिक्षणसंस्थानानि समापितानि। तेनोक्तं यत् छात्राः सम्प्रति शिक्षायै विदेशं जिगमिषन्ति, परन्तु भारते एतदर्थम् अनेके अवसराः सन्ति। उपराष्ट्रपतिना राष्ट्रिय शिक्षानीतेः प्रशंसां कुर्वन् एतां क्रान्तिकरः पदक्षेपो अस्तीत्यपि उक्तम्। केन्द्रीय वित्तमन्त्रिणा निर्मला सीतारामन् इत्यनया प्रोक्तं यत् मैक्सिको भारतयोः संयुक्त प्रयासैः विशेषतः सेमीकण्डक्टर प्रिंटेड सर्किट फलक सहित अन्येषु अत्युन्नत वैद्युतिक उपकरणादिषु विविधीकरणद्वारा सुकरा स्थितिः इतोऽपि सुदृढा भवितुमर्हतीति। वित्तमन्त्रिणा मैक्सिको सिटीति क्षेत्रे व्यापार विनिवेशयोः सहयोगाभिवर्धयितुं भारत मैक्सिको व्यापार विनिवेश शिखर सम्मेलने भागं भजन्त्या एतदुक्तम्। सम्मेलनेऽस्मिन् मैक्सिको सिटी इत्यस्य आर्थिक विकास मन्त्री मनोला जबोल्जा अल्दामा इत्येषोऽपि शिखर सम्मेलनेऽस्मिन् प्रातिभाग्यम् अकरोत्। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। रक्षामन्त्रिणा राजनाथसिंहेन उक्तं यत् अत्याधुनिकप्रविधिषु विनिवेशं कृत्वा अपि चैकस्य सुदृढरक्षापारिस्थितिकीयतन्त्रस्य पोषणं कृत्वा प्रशासनेन सुनिश्चितमस्ति यत् सशस्त्रबलानि भविष्यत्कालाय सन्नद्धानि स्युरिति। अद्य नवदिल्ल्यां राष्ट्रियरक्षामहाविद्यालयस्य विशिष्टाचार्यच्छात्राणां द्विषष्टितमं दीक्षान्तसमारोहं सम्बोधयन् श्रीसिंहः अकथयत् यत् साम्प्रतिके काले युद्धभूमिः सागरीय वायव्यादि पारम्परिकक्षेत्राणि अतिरिच्य बहिर्निर्गतास्ति। श्रीसिंहेनोक्तं यत् सशस्त्रबलानि सम्प्रति बहुक्षेत्रीय वातावरणेषु कार्याणि सम्पादयन्ति।
Artificial intelligence, or AI, has the potential to revolutionize military operations from predictive analytics to autonomous decision-making systems. You will be the leaders who will have to decide where and how to leverage this technology and whether you will deploy this technology to enhance situational awareness or to optimize resource allocation or to improve decision-making in real time.
Rakshamantri Abadatiyat अद्यतनीये पारस्परिकतया सम्बद्धे संसारे सैन्यनेतृभ्यः आवश्यकमस्ति यत् भूराजनीतिम् अन्ताराष्ट्रियसम्बन्धान् वैश्विकसुरक्षासङ्घटनानि च ते सम्यक्तया विजानीयुरिति। जम्मूकश्मीरेति केन्द्रशासितप्रदेशे उपराज्यपालेन मनोजसिन्हावर्येण श्रीनगरस्य ईदगाहेति निर्वाचनक्षेत्रात् विधानसभानिर्वाचने विजिताय वरिष्ठाय नेशनल कॉन्फ्रेंस दलस्य नेत्रे मुबारक गुल इत्यस्मै कार्यकारी विधानसभा अध्यक्षत्वेन पदस्य गोपनीयतायाश्च शपथग्रहणं कारितम्। अद्य श्रीनगरस्य राजभवने एकस्मिन् समारोहे तस्य शपथग्रहणं जातम्। अस्मिन् अवसरे मुख्यमंत्री उमर अब्दुल्ला, उपमुख्यमंत्री सुरेन्द्र चौधरी, सकीना याटू, जावेद डारः, जावेद राणा, सतीश शर्मा इत्यादयः मंत्रिमंडलीय सदस्याः अपि उपस्थिताः आसन्। श्रीगुलः शुक्रवासरे जम्मू कश्मीर विधानसभायाः सभापतित्वेन नियुक्तः। सः श्वः जम्मू कश्मीर विधानसभायाः नवनिर्वाचितेभ्यः सदस्येभ्यः शपथग्रहणं कारयिष्यति। आगामी झारखण्ड विधानसभा निर्वाचनाय INDIA इत्यनेन घटबन्धनेन आसन्दानां विभजनं सुनिश्चितम्। झारखण्ड मुक्ति मोर्चा इति दलेन सह कांग्रेसश्च 70 आसनेषु प्रतिस्पर्धां करिष्यतः। रांचीनगरे वार्ताहरान् सम्बोधयन् झामुमो दलस्य कार्यकारी अध्यक्षः हेमंत सोरेनः उक्तवान् यत् राजद माकपा माले दलेभ्यः 11 आसनानि दत्तानि। श्रीसोरेनः अवदत् यत् झामुमो कांग्रेसयोः मध्ये आसनानां विभाजने शीघ्रमेव निर्णयः भविष्यति। हेमंत सोरेन उक्तवान् यत् अभ्यर्थीनां सूचिः अपि सज्जा अस्ति, शीघ्रमेव प्रसारिता भविष्यतीति। भारतीय ऋतुविज्ञानविभागेन अग्रिमयोः दिनद्वयतः दिनत्रयं यावत् तमिलनाडु, पुदुच्चेरी, कर्णाटकसहित राष्ट्रस्य दक्षिणभागेषु धारासारवर्षायाः सम्भावना प्रकटितास्ति। विभागेन सोमवासरान्तं यावत् अण्डमान निकोबार द्वीपसमूहेष्वपि एतादृशी एव स्थितिः भविष्यतीति भविष्यवाणी कृतास्ति। 24,000-2,000 वर्षस्य शरसन्धान विश्वचषकस्पर्धायाः निर्णायकप्रतियोगितायाम् अद्य मेक्सिको देशे क्रीड्यते। प्रतियोगितायां रिकर्व तथा कंपाउंड इवेंट इत्यत्र व्यक्तिगत पुरुष महिला स्पर्धाः भविष्यन्ति। पंच भारतीय धनुर्धराश्च देशस्य प्रातिनिध्यं करिष्यन्ति। न्यूजीलैंड भारतयोः मध्ये क्रीड्यमानायां क्रिकेट निकष स्पर्धायां अद्य चतुर्थ दिवसस्य क्रीडायाः समाप्तौ बेंगलुरु नगरे भारतीय दलेन 260+400 धावनांकान् विरच्य 6+7+100 धावनांकानां लक्ष्यं प्रदत्तम्। यत्र सरफराज खानस्य 150+ धावनांकानां क्रीडया सह 99 धावनांकाश्च ऋषभ पन्तेन अर्जिताः। क्रीडैसा वर्षा बाधिता आसीत् इति वार्ताः।